शरच्चन्द्रभ्रान्तिं स्फुरदमलकान्तिं गजगतिं हरिप्रेमोन्मत्तं धृतपरमसत्त्वं स्मितमुखम् सदा घूर्णं नेत्रं करकलितवेत्रं कलिभिदं भजे नित्यानन्दं भजनतरुकन्दं निरवधि रसानामागारम् स्वजनगणसर्वस्वमतुलम् तदीयैकप्राण प्रमितवसुधा जाह्नवपतिम् सदा प्रेमोन्मादम् परमविदितं मन्दमनसा भजे नित्यानन्दं भजनतरुकन्दं निरवधि शचीसूनुप्रेष्ठं निखिलजगदीष्टं सुखमयं कलौ मज्जज्जीवोद्धरणकरणोद्दामकरुणम् हरेराख्यानाद्वा भवजलधिगर्वोन्नतिहरम् भजे नित्यानन्दं भजनतरुकन्दम् निरवधि अये भ्रातरनृणां कलिकलुषिणां किं नु भविता तथा प्रायश्चित्तं रचय यदनायासत इमे व्रजन्ति त्वामित्थं सह भगवता मन्त्रयति यो भजे नित्यानन्दं भजनतरुकन्दं निरवधि यथेष्टं रे भ्रातः कुरु हरिहरिध्वानि मनिषम् ततो वः संसारां बुधितरणदायो मयि लगेत् इदं बाहुस्फोटैरटतिरटयन् यः प्रतिगृहम् भजे नित्यानन्दं भजनतरुकन्दं निरवधि बलात् संसारम्भो निधिहरणकुम्भोद्भवमहो सतां श्रेयःसिन्धून्नतिकुमुदबन्धुं समुदितम् खलश्रेणी स्फूर्जत् तिमिरहरसूर्यप्रभमहम् भजे नित्यानन्दं भजनतरुकन्दं निरवधि नटन्तं गायन्तं हरिमनुवदन्तं पथि पथि व्रजन्तं पश्यन्तं स्वमपि न दयन्तं जनगणम् प्रकुर्वन्तं सन्तं सकरुणदृगन्तं प्रकलनाद् भजे नित्यानंदं भजन तरुकंदं निरवधि। सुबिभ्राणं भ्रातु करसरसिजं कोमलतरं मिथो वक्त्रालोकोच्छलित परमानंद हृदयम् भ्रमन्तं माधुर्यैर् अहमदयन्तं पुरजनान् भजे नित्यानंदं भजन तरुकंदं निरवधि। रसानामाधारं रसिकवरसद्वैष्णवधनं रसागारं सारं पतिततितारं स्मरणतः परं नित्यानन्दाष्टकमिदमपूर्वं पठति यस् तदङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरां तस्य हृदये तदङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरां तस्य हृदये।